इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका सुषमा कुमारी। मुख्य वार्ताः। भारतीय चिकित्सा संघेन आईएमए इत्यनेन पश्चिम बंगाल राज्यस्य आरजी कर मेडिकल कॉलेज प्रकरणे प्रधानमंत्री नरेन्द्र मोदी पक्षतः स्वास्थ्य कार्मिकाणां सुरक्षायै केन्द्रीय विधि विनिर्माण प्रस्तावस्य अभ्याचना कृतास्ति। राष्ट्रपतिना श्रीमत्या द्रौपदी मुर्मू वर्यया जनाः रक्षाबंधन पर्वणि शुभाषिताः। अपि च गृहमंत्री अमित शाहः अवादीत् यत् नागरिकता संशोधन अधिनियम सीएए इत्यनेन कस्यापि धर्मस्य नागरिकस्य नागरिकतायाः समापनं नैव भविष्यति, अपि तु एतस्य अधिनियमस्य माध्यमेन भारतीय शरणार्थिजनाः नागरिकतायाः ससम्मानं न्यायं च प्राप्नुवन्ति। विदेशमंत्री सुब्रह्मण्यम जयशंकरः एकदिवसीय यात्रार्थम् अद्य कुवैत नगरं सम्प्राप्तवान्। अथ वार्ताः विस्तरेण। भारतीय चिकित्सा संघेन आईएमए इत्यनेन पश्चिम बंगाल राज्यस्य आरजी कर मेडिकल कॉलेज प्रकरणे प्रधानमंत्री नरेन्द्र मोदीतः स्वास्थ्य कार्मिकाणां सुरक्षायै केन्द्रीय विधि विनिर्माण प्रस्तावस्य अभ्याचना कृतास्ति। सन्दर्भेऽस्मिन् भारतीय चिकित्सा संघेन चिकित्सालयानां सुरक्षा व्यवस्था दृढयित्वा इत्यपि अध्यर्थितम्। श्रीमोदिने लिखिते पत्रे आईएमए इत्यनेन प्रतिपादितं यत् चिकित्सालये दुष्कर्म प्रकरणस्य च अन्वीक्षणं कालाभ्यन्तरैव पूरयितव्या। गृहमंत्री अमित शाहः अवादीत् यत् नागरिकता संशोधन अधिनियम सीएए इत्यनेन कस्यापि धर्मस्य नागरिकस्य नागरिकतायाः समापनं नैव भविष्यति, अपि तु एतस्य अधिनियमस्य माध्यमेन भारतीय शरणार्थिजनाः नागरिकतायाः ससम्मानं न्यायं च प्राप्नुवन्ति। अद्य श्रीशाहः अहमदाबाद नगरे 88% विस्थापित जनान् नागरिकता प्रमाणपत्रं दत्त्वा एकस्मिन् समारोहे सम्बोधयति स्म। श्रीशाहः वोट बैंक इति विषये अपि च तुष्टीकरणस्य राजनीति प्रकरणे कांग्रेस दलस्य पूर्व शासनानाम् आलोचितम्। श्रीशाहेन अशेष देशे सीएए इति अधिनियमस्य मोदी प्रशासनस्य प्रतिबद्धता पुनः प्रतिपादिता। अद्य अहमदाबाद नगरे श्री अमित शाहः नगर निगमस्य 1,000,000,000,000 रूप्यकाणां अनेक विकास परियोजनानां उद्घाटनम् अपि अकरोत्। सीबीआई इति केन्द्रीय अन्वीक्षणाभिकरणं कोलकातास्थ आरजी कर इत्यस्य चिकित्सा महाविद्यालयस्य पूर्व प्राचार्येण सह दुरापादिते दुष्कर्म हत्या प्रकरणे च नवदिल्ल्याम् अन्वीक्षणं विदधाति। प्रकरणेऽस्मिन् अन्वीक्षणाभिकरणेन प्राचार्य सीजीओ परिसरे परिपृच्छार्थम् अपि समाहूतः। अत्रान्तरे कोलकातारक्षिबलेन आरजी कर चिकित्सा महाविद्यालयस्य चिकित्सालयस्य पार्श्वे च अवैध प्रकरणान् अपाकर्तुम् अद्य प्रभृति आगामिषु 7 दिवसात्मकं यावत् भारतीय नागरिक सुरक्षा संहितायाः अनुच्छेदः 63 इति स्थापितः अस्ति। कोलकातारक्षिदलेन भारतीय विद्यार्थी संघस्य नेतारौ अगस्त 14 दिनांके रात्रौ चिकित्सा महाविद्यालये विहितानां हिंस्र घटनानां प्रकरणे निगडितौ। स्वास्थ्य कार्मिकाणां सुरक्षां सुनिश्चेतुं केन्द्र प्रशासनं समितिरेका अपि संरचयिष्यति। विदेशमंत्री सुब्रह्मण्यम जयशंकरः एकदिवसीय यात्रार्थम् अद्य क्वैत नगरं सम्प्राप्तवान्। क्वैत देशस्य विदेशमंत्री अब्दुल्ला अली अल याहया वर्यः तस्य स्वागतम् अकरोत्। यात्रावधौ देशद्वयं राजनीति व्यापार विनिवेश ऊर्जा सुरक्षा संस्कृति जनसंपर्क इत्यादयः विषयेषु द्विपक्षीय सम्बन्धानां विभिन्न चरणानां समीक्षां विधास्यन्ति। नेतारौ क्षेत्रीय अन्ताराष्ट्रिय विषयेषु अपि विचार विमर्शो करिष्यतः। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः सम्प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अमेरिकीय विदेश मन्त्रिणा एंटनी ब्लिंकन गाजा क्षेत्र युद्ध विरामस्य प्रयासाः तीव्रतराम् कर्तुम् अद्य इस्राइल देशे तल अवीवं सम्प्रस्थास्यति। गतवर्षे अक्टूबर मासे इस्राइल देशे हमास देशीय आतंकी आक्रमणानन्तरं ब्लिंकनस्य एषा पश्चिम एशियायाः नवमी यात्रा वर्तते। असौ काहिरायां सम्पत्स्यमाणायाः इस्राइल हमास अप्रत्यक्ष शान्तिवार्तायाः विषये ध्यानं द्यास्यति। एषा वार्ता शुक्रवासरे भविष्यति। नेपाल देशस्य विदेशमन्त्री डॉ आरजू राणा देउबा अद्य पञ्चदिवसीय भारतीय यात्रार्थं नवदिल्लीं सम्प्राप्तवती। यात्रावधौ सा विदेशमन्त्री डॉ एस जयशंकरेण सह द्विपक्षीय विषयेषु परिचर्चामपि विधास्यति। विदेशमन्त्रालयेन एकस्यां विज्ञप्त्यां संसूचितं यत् एषा यात्रा डॉ देउबा वर्यायाः भारत नेपाल देशयोर्मध्ये परम्परागत नियमित उच्चस्तरीय विचार विमर्शस्य अंशो विद्यते। विदेशमन्त्रालयानुसारेण भारतदेशस्य प्रतिवेशी प्रथम नीत्यां नेपालदेशः प्राथमिक सहभागी देशो वर्तते। एषा यात्रा देशयोः सम्बन्धानां सुदृढीकरणार्थं महत्वपूर्णा वर्तते। झारखण्ड प्रदेशस्य मुख्यमन्त्रिणा हेमन्त सोरेन वर्येण अद्य मुख्यमन्त्री मैया सम्मान योजना शुभारम्भिता। रक्षाबन्धन पर्वोपलक्ष्ये शुभारम्भिता एषा योजना हेमन्त वर्येण पाकुर जनपदे प्रारब्धा। योजनायाः सन्दर्भे प्रवदन् असौ प्रोक्तवान् यत् अस्याः योजनायाः मुख्यरूपेण महिलाः लाभान्विताः भविष्यन्ति। एकविंशतितः पञ्चाशत् वर्षात्मकीयाः महिलाः योजनातः बहवः लाभयुताः भविष्यन्ति इति आशास्यते। मुख्यमन्त्री मैया सम्मान योजना अशेष राज्यतः अष्टचत्वारिंशत् लक्षोत्तर महिलानां लाभं मनसि निदध्याय शुभारम्भिता। राष्ट्रपतिना श्रीमत्या द्रौपदी मुर्मू वर्यया जनाः रक्षाबन्धन पर्वणि शुभाषिताः। स्वीय सन्देशे राष्ट्रपतिना भणितं यत् रक्षाबन्धन पर्व भ्रातुः भगिन्याः अपूर्वबन्धनस्य प्रतीको वर्तते। राष्ट्रपतिः प्रतिपादितवती यत् उत्सवोऽयम् अनेकतायाम् एकतायाः प्रतीको विद्यते। तया प्रोक्तम् यत् उत्सवोऽयं महिलानां सुरक्षां प्रति तासाम् अधिकाराणां च दृढीकरणस्य आदर्शरूपो विद्यते। उत्तरप्रदेशे बुलन्दशहर जनपदे बस द्रुतगामी यानेन सह संघटनात् दश जनाः मृताः सप्तत्रिंशच्च व्रणिताः सूच्यन्ते। दुर्घटना एषा सीलमपुर आरक्षि छात्र पार्श्वे घटिता संजाता। आहताः सर्वे जनाः निकटवर्ति चिकित्सालये उपचाराधीनाः वर्तन्ते। अस्मदीय आकाशवाणी वार्ताहरेण संसूचितं यत् दुर्घटनाम् इमाम् आलक्ष्य मुख्यमन्त्रिणा योगी आदित्यनाथेन सम्बद्ध अधिकारिभिः अन्वीक्षणाय आदिष्टाः सन्ति। सर्वे मृतकाः रक्षाबन्धन पर्वणि स्वस्व परिजनानां गृहेषु गच्छन्ति स्म। प्रिय श्रोतारः संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड इति प्रवाहिकातः सम्प्रसार्यते। भवन्तः सर्वे श्रोतुं प्रभवन्ति।